गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीरामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इषुः शिवतमा शिवम् बभूवते धनुः शिवाशरव्या यातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्तापि चाकशीः यामिषुम् गिरिशम् तहस्ते विवर्षस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिसाच्छावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्य वोचददि वक्ता प्रथमो दैव्यो विशक अहेगस्य सर्वाञ्जम्बयन् सर्वास्य यातु धान्यः असौ यस्ताम्रो अरुण उत वभ्रः स्वमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रता सहस्रशो वैशागुम् एड इमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मयोर्ज्याम् यास्य देहस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु दे निशीर्य शल्यानामुखा शिवो न सुमना भव विज्यम् धनु कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आवुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान्विश्वतत्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधाय नातताय धृष्णवे उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथो यिषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः तस्मिन् जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्द्रानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विनिक्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णतां पतये नमो नमो शिवद्भ्यो नक्रं चरव्य प्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आदन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठद्भ्यो तावद्भ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्ति यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपतिभ्यश्च वो नमो नम सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः तक्षव्योरतकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनिभ्यश्च वो नमो नमः स्वभ्यश्वपतिभ्यश्च वो नमः namo bhavaya cha rudraya cha namah sarvaya cha pashupataye cha namo nilagrivaya cha shitikanthaya cha namah kapardine cha yuktakeshaya cha namah sahasrakshaya cha shatadhanvane cha namo girishaya cha shimivishtaya cha namo minushtamaya cha shumate cha namo rasvaya cha vamanaya cha namo bruhate cha varshiya cha namo dhadvaya cha samrudvane cha namo agriyaya cha tathamaya cha namo ashave cha jiraya cha namo shigriyaya cha shibhyaya cha namo urgyaya cha vasvanyaya cha namo shrotasyaya cha dvipyaya cha namo jyeshthaya cha kanishthaya cha namo purvajaya cha parajaya cha namo madhyamaya cha apagalpaya cha namo jaganyaya cha butneyaya cha namo sobhyaya cha pratisaryaya cha namo yamyaya cha kshemyaya cha namo urvaryaya cha kalyaya cha namo shokyaya cha vasanyaya cha namo vanyaya cha kakshaya cha namo shravaya cha pratishravaya cha namo ashushenaya cha shurathaya cha namo shuraya cha vavindate cha namo varmine cha varudhine cha namo bilmine cha kavachine cha namo shrutaya cha shrutasenaya cha namo dundubhyaya cha hananyaya cha namo vrishnave cha pramushaya cha namo dutaya cha prahitaya cha namo nishangine cha shudhimate cha namas tikshneshave cha yudhine cha namo svayudhaya cha sudhanvane cha namo shrutyaya cha patyaya cha namo kadyaya cha nipyaya cha namo sodhyaya cha sarasyaya cha namo nadyaya cha vaishantaya cha namo rupyaya cha vatyaya cha namo varshyaya cha varshyaya cha namo medhyaya cha vidyutyaya cha namo indriyaya cha tapyaya cha namo vatyaya cha reshmiyaya cha namo vastavyaya cha vastuvaya cha om hara 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 om namah somaya cha rudraya cha namastamraya cha runaya cha namah shangaya cha pashupataye cha namah ugraya cha bhimaya cha namo agre vadaya cha dure vadaya cha namo hantre cha haniyase cha namo vrikshebhyo harikeshebhyo namastaraya namah shambhave cha mayobhave cha namah shankaraya cha mayaskaraya cha namah shivaya cha shivataraya cha namastirthyaya cha kulyaya cha namah varyaya cha varyaya cha namah pratharanaya chottaranaya cha namah atharyaya cha ladhyaya cha namah shashtyaya cha penyaya cha namah chikatyaya cha pravahyaya cha namah irinyaya cha prapatyaya cha namah kegum shilaya chakshayanaya cha namah kapardine cha pulastaye cha namo goshyaya cha grihyaya cha namah stalpyaya cha gehyaya cha namah katyaya cha gavvareshtaya cha namo radhayaya cha niveshpyaya cha namah पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रावे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा वेर्मा रोमो येषाम् किञ्चन ममत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नु मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वेराय प्रवरामहे मतिम् यथा नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृति क्षयद्वेराय नमसा विधेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो बलिर्हविष्मन्तो नमसा विधेमते आराध्ये गोग्न उत पोरुषन्ये क्षयद्वेराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यदा च नः शर्म यच्छ द्विवराः स्तुहि श्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि क्लेशस्य दुर्मतिरघायोः अवस्थिरा मगवद्भ्यस्तनुष्वमीडस्तोकायतनयाय मृडया मीडुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधन् निदाय कृत्यम् वसा न आचर पिनाकम् विव्रदा गहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् एतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव एतयः तासामीशानो भगव पराचेरामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयो जने वदन्वानि तन्मसे अस्मिन्महत्यर्णवेन्तरिक्षे भवा अदे नीलग्रीवाश्रितिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पताम् पथिरक्षयैलवृदायव्युधः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो देचेर्दशोद्वास्तेभ्यो नमस्ते नो मृडयन्तु तेऽयम् दिष्मो यश्च नो द्वेष्टितम् भोजम् मे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायय सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो माविशान्तकः एनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विशुस्वदन्वायो विश्वस्य क्षयति वे सजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्ववेशयो यगुम् शिवाभिमर्शनः ॐ
शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेमावर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे शावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च म आधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोऽश्च मे प्रसोऽश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिज्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वृत्तं च मे वृत्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पातिवतश्च मे आर्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छ म आधवनीयश्च म आग्नेर्धं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे द्वित्यवाच्य मे द्वित्यौहे च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौहे च मे पष्टवाच्य मे पष्टौहे च महुक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे अष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुं षच्च मे वाजश्च प्रसवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञने बृहस्पतिरुक्था वदानि सगुंसि षद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यातगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभाये पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कन्वेण जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागुम् राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशादिका हताः श्वेताभिः सह सर्वे हताः आहरा मद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्रजम् हयोः आदधामि तथा हि तत् खण् फण् रसे ॐ शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनूभिः यशेम देवहि तञ्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ऋतम् वच्मि सत्यम् वच्मि अवत्वम् माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमव शिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरातात् अवदक्षिणातात् अवचोर्ध्वातात् अवाधरातात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्विजेयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् त्वत्तो जायते सर्वम् जगदिदम् त्वत्तस्तिष्ठते सर्वम् जगदिदम् त्वयि लयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येते त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वात्पदानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनो ध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्म भूर्भुवः सुवरो गणादिम् पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितम् तारेण रुद्धम् एतत्तव मनुस्वरूपम् गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चाञ्जरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् सगुम्भिता सन्धिः सैषा गणेश विद्या गणकऋषिः నిషుద్గాయత్రీ ఛందః గణపతిర్దేవతా ఓం గం గణపతయే నమః ఏకదంతాయ విద్మహే వక్రతుండాయ ధీమహి తన్నో దంతి ప్రచోదయాత్ ఏకదంతం చతుర్హస్తం పాశమంకుశధారిణం రథం చ వరదం హస్తైర్బిభ్రాణం మోషకధ్వజం రక్తం లంబోదరం శూర్పకర్ణకం రక్తవాససం రక్తగంధానులిప్తాంగం రక్తపుష్పై సుపూజితం భక్తానుకంపినం దేవం జగత్కారణమచ్యుతం ఆవిర్భూతం చ సృష్ట్యాదౌ ప్రకృతే పురుషాత్పరం ఏవం ధ్యాయతి యో నిత్యం స యోగీ యోగినాం వరః నమో వ్రాతపతయే నమో గణపతయే నమః ప్రమథపతయే నమస్తే అస్తు లంబోదరాయైకదంతాయ విఘ్ననాశిని శివసుతాయ వరదమూర్తయే నమః ఏతదథర్వశీర్షం యోధీతే స బ్రహ్మభూయాయ కల్పతే సర్వవిఘ్నైర్న బాధ్యతే సర్వత్ర సుఖమేధతే స పంచమహాపాపాత్ ప్రముచ్యతే సాయమధీయానో దివసకృతం పాపం నాశయతే ప్రాతరధీయానో రాత్రికృతం పాపం నాశయతే సాయం ప్రాతః ప్రయుజ్ఞానో పాపో పాపో భవతి సర్వత్రాధేయానోపవిఘ్నో భవతి ధర్మార్థకామమోక్షం చ విందతి ఇదమథర్వశీర్షమశిష్యాయన ధేయం యో యది మోహాన్ దాస్యతి స పాపీయాన్ భవతి సహస్రావర్తనాద్యం యం కామమధీతే తంతమనేన సాధయేత్ అనేన గణపతిమభిషించతి స వాగ్ని భవతి చతుర్ధ్యామనశ్చం జపతి స విద్యావాన్ భవతి ఇత్యథర్వణ వాక్యం బ్రహ్మాద్యావరణం విద్యాన్న విభేతి కదాచనేతి యో దూర్వాంకురైర్యజతి స వై శ్రవణోపమో భవతి యో లాజైర్యజతి స యశోవాన్ భవతి సమేధావాన్ భవతి యో మోదక సహస్రేణ యజతి స వాంఛిత ఫలమవాప్నోతి యస్ సాధ్య సమిర్ధిర్యజతి స సర్వం లభతే అష్టౌ బ్రాహ్మణాన్ సమ్యగ్రాహయిత్వా సూర్యవర్చస్వే భవతి సూర్యగ్రహే మహానద్యాం ప్రతిమా సన్నిధౌ వా జప్త్వా సిద్ధమంత్రో భవతి మహావిఘ్నాత్ ప్రముచ్యతే మహాదోషాత్ ప్రముచ్యతే మహాప్రత్యవాయాత్ ప్రముచ్యతే సర్వవిద్భవతి సర్వవిద్భవతి య ఏవం వేదా ఇత్యుపనిషత్ భద్రం కర్ణేభిః శృణుయామ దేవాః భద్రం పశ్యేమాక్షభిర్యజత్రాః స్థిరైరంగైస్తుష్టువాగు సస్తనోభిః వ్యశేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్ధశ్రవాః స్వస్తి న పూషా విశ్వవేదాః స్వస్తి నస్తార్క్షో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతు ఓం శాంతి శాంతి శాంతిః రాజాధిరాజాయ ప్రసంయసాహినే నమో వయం వై శ్రవణాయ కుర్మహే సమే కామాన్ కామకామాయ మహ్యం కామేశ్వరో వై శ్రవణో దధాతు కుబేరాయ వై శ్రవణాయ
महाराजाय नमः। स्वस्ति प्रजाभ्य परिपालयन्ताम् न्यायेन मार्गेण महिम् महेशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्तिः।